एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्रिणा पुष्पकमला दाहाल प्रचण्डेन विमानानाम् क्रयण प्रक्रियायाम् कथम् विधामपि त्रुटिम् विवादस्य कार्यम् च न कर्तुम् पारदर्शी रूपेण अग्रे वर्धितुम् च संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयः निर्दिष्टो वर्तते। ह्य संस्कृति पर्यटन नागरिकोड्डयन मन्त्रालयेन पेयजल मन्त्रालयेन च सह विहिते संयुक्त विमर्शने प्रधानमन्त्री दाहाल एवं निरदिशत नेपाले विमान क्रयण प्रक्रियायां सदा प्रश्न उत्थाप्यते इति भाषमाण प्रधानमन्त्री प्रचण्ड एतद्वारं विमान क्रयण प्रक्रियायां विगतकालिक त्रुटि इव त्रुटि न भवतु इत्यत्र सावधाना भवितुम् अन्वरुणत। तदवसरे प्रधानमन्त्री प्रचण्ड पेयजल नलिकासु जलं न पतति परं शुल्क प्रपत्रस्य आनयनस्य समस्यात बहवः उपभोक्तार ग्रस्ता सन्ति तथाविध समस्यां तत्कालं समाधातुं पेयजल मन्त्रालयं निरदिशत। प्रधानमन्त्रिणा पुष्पकमला दाहाल प्रचण्डेन संक्रमणकालिक न्यायं निष्कर्षं प्रापयितुं प्रमुखैः दलैः सह विमृष्टमस्ति। बालवाटा र वर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने तस्मिन् विमर्शने नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली, नेपाली कांग्रेस दलस्य प्रमुख सचेतक परियो रमेश लेखक सहभागिन आसन्। विमर्शने संक्रमणकालिक न्यायेन सह शान्ति प्रक्रियाया अवशिष्टानाम् कार्याणाम् पूरणस्य विषयः विमृष्टः इति प्रधानमन्त्रिणः सञ्चारविज्ञः मनोहरी तिमलसिना अज्ञापयत्। एकसप्तत्यधिकद्विसहस्रतम विक्रम वर्षीयस्य विलोपितानाम् जनानाम् अन्वेषण सत्यनिरूपण मेलायोगस्य अधिनियमस्य संशोधनाय निर्मितम् विधेयकम् संघीय संसदि विचाराधीनावस्थायाम् वर्तते। प्रधान न्यायाधीश विश्वम्भर प्रसाद श्रेष्ठ निगदति न्यायालयेषु स्वचालित प्रणालीत न्यायिक प्रकरणानाम् श्रवणाय दिन निर्धारणस्य प्रक्रियाया प्रारम्भेन सहैव न्यायालयं प्रति जनानाम् विश्वास अतिरिक्त वर्धते। पाटनवर्तिन उच्च न्यायालयात् स्वचालित श्रवण दिवस व्यवस्थापन प्रणालीम् पूर्वेद्युः शुभारभमाण प्रधान न्यायाधीश श्रेष्ठ न्यायालयस्य पूर्णरूपेण प्रविधि मैत्रिण सम्पादनात् सेवाग्राहिभ्य सौविध्येन सह न्यायालये विश्वासोऽपि वर्धते इति प्रावोचत। प्रधान न्यायाधीश श्रेष्ठ आगामी दिनेषु जनपद न्यायालयेष्वपि स्वचालित प्रणाल्या क्रियान्वयनस्य विषये अध्ययनम् विद्यमानम् अस्तीति असूचयत। सर्वोच्च न्यायालयेन उच्च न्यायालयेषु विशेष न्यायालये समन्यायालये वैदेशिक वृत्त्युपार्जन न्यायाधिकरणे च अनलाइन प्रणाल्या श्रवणस्य व्यवस्थां विधातुं पूर्वकार्यं विधीयमानम् अस्ति। सप्तसु प्रदेशेषु सप्त उच्च न्यायालया अस्थायी न्यायपीठानि चेत्याहत्य समग्रत अष्टादश न्यायिक स्थलानि वर्तन्ते। तेषु सर्वेषु स्थलेषु ह्यस्तन दिवस स्वचालित प्रणाल्या श्रवण दिवसस्य निर्धारणं प्रारब्धम् वर्तते। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा भासते स्वर्गीय कृष्णप्रसाद भट्टराई नेपालस्य राजनीतिक क्षेत्रे निष्कलंक जन आसीत। नेपाली कांग्रेस दलस्य संस्थापकस्य नेतुः पूर्व प्रधानमन्त्रिणश्च स्वर्गीयस्य कृष्णप्रसाद भट्टराई इत्यस्य जन्मजयन्त्याः अवसरे सानेपावर्तिनी दलस्य केन्द्रीय कार्यालय पूर्वेद्युः आयोजिते कार्यक्रमे सभापति देउवा अवदत् नेपाली राजनीतौ भट्टराई निष्ठायाः त्यागस्य च प्रतिमूर्तिः आसीत्। सभापति देउवा अवासत सर्वैः मिलित्वा वर्तमान व्यवस्था सफली करणीया। कार्यक्रमे दलस्य उपसभापतिः रक्षामन्त्री च पूर्णबहादुर खड्का कृष्णप्रसाद भट्टराई इत्यस्य पारदर्शिनः सहजस्य च व्यवहारस्य अनुकरणमेव तं प्रति श्रद्धाभिव्यञ्जनम् भवति त्यवोचत। ह्य एव स्वर्गीयस्य भट्टराई इत्यस्य जन्मजयन्त्याः अवसरे मोरङ जनपदे आयोजिते कार्यक्रमे नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य डाक्टर शेखर कोइराला अगदत् पूर्व प्रधानमन्त्री भट्टराई राजनीतिक संस्कारस्य नैतिकतायाश्च प्रतिमूर्तिः आसीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा कथयति सर्वकारस्य नेतृत्वस्य हस्तान्तरणस्य विषये कथंविदमपि विमर्शनम् सम्भूतम् नास्ति। प्रेस सेन्टर नेपालेन विराटनगरे ह्य आयोजिते पत्रकार सम्मेलने मन्त्री शर्मा एक वर्षावधौ विभिन्नासु समस्यासु सीमासु च सत्स्वपि सर्वकारः उपलब्धिमूलकानि कार्याणि कर्तुम् सफलः समृतो वर्तते। इत्यवोचत सर्वकारस्य प्रवक्ता च मन्त्री शर्मा सर्वकारस्य संगठनस्य वर्षावधिकस्य समयस्य पूरणम् जायमानमस्तीत्यतः आगामि दिनेषु तीव्रगत्या कार्याणि विधास्यते इति प्रतिबद्धताम् व्यक्तवती। कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य ललिता निवास भूम्या प्रकरणस्य च विषयान् उत्थाप्य त्रुटिकर्तृन् जनान् दण्डनस्य प्रक्रियायाम् आनीय सुशासनम् संस्थापयितुम् सर्वकारः सफलः सम्भूतोऽस्तीति मन्त्री शर्मा अतर्कयत। य एव नेपाल टेलिभिजन संस्थानस्य इटरी प्रसारण सरण्याः निरीक्षणस्य पश्चात् आयोजिते कार्यक्रमे मन्त्री शर्मा सर्वकारीय संचार माध्यमैः सर्वकारस्य सन्देशस्य सार्वजनिकरणम् एव न अपितु सर्वकारस्य जनतायाश्च मध्ये सेतोः भूमिका निर्वहणीयेति प्रत्यपादयत। कार्यक्रमे नेपाल टेलिभिजन संस्थानस्य कार्यकारी अध्यक्ष समीर जंगशाह महाप्रबन्धक फुलमान बल इटरी प्रसारण सरण्या प्रमुख राजेन्द्र राज तिमल सिन्हा च टेलिभिजन संस्थानस्य अवस्थाम् मन्त्रिणम् शर्माणम् अज्ञापयन्। नेपालेन सह आविश्वम् अद्य क्रिश्चियन धर्मावलम्बिभिः क्रिसमस डे नाम्ना प्रथितः येशु ख्रीष्ट इत्यस्य जन्मदिवसः समायोज्यते। प्रतिवर्षम् ख्रीष्टवर्षस्य डिसेम्बर मासस्य पञ्चविंशे दिवसे क्रिश्चियन धर्मावलम्बिभिः दिवसोऽयम् उत्सवस्य रूपेण समायोज्यते। एतदवसरे सर्वकारेण अद्य आराष्ट्रम् सार्वजनिकावकाशः प्रदत्तो वर्तते। राष्ट्रपतिना रामचन्द्र पौडेलेन ईसाई धर्मावलम्बीनाम् क्रिसमस पर्वणः अवसरे प्रदत्ते सन्देशे सम्पूर्णेषु ईसाई धर्मावलम्बिषु सुख शान्त्योः स्वास्थ्यस्य च कामना विहिता वर्तते। राष्ट्रपतिना पौडेलेन अनेन पर्वणा राष्ट्रिय एकताम् अतिरिक्ताम् सुदृढाम् विधातुम् सहयोगः प्राप्यते इति विश्वासः व्यक्तोऽस्ति।